ॐ श्रीगुरुभ्यो नमः हरिः ॐ गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्त्वतालशृण्वन्नोतिभिः सीदसारलम् श्रीमहागणाधिपतये नमः अस्य श्रीरुद्रस्य प्रश्नस्य अघोरऋषिः अनुष्टुप्छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स्वयेष रुद्रो देवता अग्निक्रतुजरमायामिष्टकायागुंसतरुद्रीये जपाभिषेके विनियोगः नमः शम्भवे च अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः मयो भवे च दर्शपूर्णमासात्मने तर्जनेभ्याम् नमः नमः शङ्कराय च चातुर्मास्यात्मने मध्यमाभ्याम् नमः मयस्कराय च निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः नमः शिवाय च ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः शिवतराय च सर्वकृत्वात्मने करतलकरपृष्ठाभ्याम् नमः नमः शम्भवे च अग्निहोत्रात्मने हृदयाय नमः मयो भवे च दर्शपूर्णमासात्मने शिरसे स्वाहा नमः शङ्कराय च चातुर्मास्यात्मने शिखायै वषट् मयस्कराय च निरूढपशुबन्धात्मने कवचायहम् नमः शिवाय च ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् शिवतराय च सर्वकृत्वात्मने हस्त्राय फट् भूर्भुवस्वरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तान्तभुवन ब्रह्माण्डमाभिस्फुरत् ज्योतिष्पाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः अस्तोराप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्जपन् ध्याये दीप्सितसिद्धये ध्रुवपदम् विप्रोऽभिषिञ्चेत् शिवम् ब्रह्माण्डम् व्याप्तदेहाभसितहिमरुचाभासमाना भुजङ्गैः कण्ठे कालाः कपर्दाः कलितशशिकलाश्चण्डकोदन्नहस्ताः त्रियक्षा रुद्राक्षमाला सुललितपुरुषशाम्भवामूर्तिभेदाः रुद्राश्रीरुद्रसूक्तप्रकटितविभवानः प्रयच्छन्तु सौख्यम् ॐ नमो भगवते रुद्राय ॐ नम् नमस्ते रुद्रमन्यव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतदे नमः या दैषः शिवतमा शिवम् बभूवते धनुः शिवा च रव्या यातभतया न रुद्रमृडया या ते रुद्रशिवा धनुरघोरा पापकाशिनी त्वया नस्तनुवाशन्तमया गिरिशन्ताभिजागसीः यामिषम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्वताम् कुरुमाहिगुंसे पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मकुम् सुमना असत् अध्यवोचदधिभक्ता प्रथमो दैव्याभिषक् अहीगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असंयस्ताम्र अरुण उत बभ्रुस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दीक्षुश्रिता सहस्रशो वैशागुम् हेण ईमहे असंयाभसर्पदिनीलग्रीभो विलोहितः उदैनम् गोपा अदृशन्नदृशन्मदहार्यः उदैनम् विश्वाभूतानि स दृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानो हन्तेभ्यो करन् नमः प्रमञ्जथम् वरस्त्वमुभयोरात्रियोर्जाम् याश्च देहस्त इह वःपराता भगवो भव अवदत्यधनुष्वकम् सहस्राक्षसितेषुधे निशील्यशील्यानाम् मुखा शिवो नः सुमना भव विज्यन्धनः कपद्दिनो विशल्यो बाणवागुम्भुता अनेशन्धस्येषव आभुरस्य निषङ्गधिः या ते हेतिर्मेढुष्टमहस्ते बभूव ते धनुः तयास्मानुविश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् दवधन्वने परिते धन्वनो हेतिरस्मान्मृणग्भिश्वतः अधो ययुधिस्त भारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय त्रिषीमते पथीनाम् पतये नमो नमो बभ्रुशाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्येत्यैकताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय कपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भवन्तये वारिवस्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः श्रवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण युषिवते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निजेरवे परिचरायारण्यानाम् पतये नमो नमः श्रुकामिभ्यो जिघागुंसद्भ्योमुष्णताम् पतये नमो नमो मध्यानक्तञ्जरभ्य प्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिजराय कुलुञ्जानाम् पतये नमो नम विश्वमध्योरन्वामिभ्यश्च वो नमो नम आतङ्गानेभ्यः प्रतितधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यद्भ्यश्च वो नमो नम आशीरेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुम्भतेभ्यश्च वो नमो नम वृत्सेभ्यो वृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो 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 रथेभ्यो रथपदिभ्यश्च वो नमो नमस्येणाभ्यश्चेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्योऽर्धकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निहारेभ्यश्च वो नमो नम इषकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वरिभ्यश्च वो नमो नमस्य भ्यश्च वो नमः
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रीकण्ठाय च नमः कवर्तिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मेधुष्टमाय च शुमरे च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृधने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊन्याय चावस्वन्याय च नमः स्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्ध्याय च नमः श्रोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावधान्याय च नमो वन्याय च कक्षाय च नमः श्रमाय च प्रतिश्रमाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चामभिन्नते च नमो भर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृजाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेधवेराजुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पच्छाय च नमः काट्याय च नीत्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कूप्याय च भट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुराय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शृङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्ध्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुर्याय च नमः पार्य याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय चालाद्याय च नमः शिष्प्याय च भेण्याय च नमस्य गच्छाय च प्रवाह्याय च नम हिरण्याय च प्रवत्साय च नमः कृगंशिलाय च क्षयणाय च नमः कवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गुह्याय च नमः स्थल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो आर्तदय्याय च निवेष्ट्याय च नमः पागंसव्याय च रजस्याय च नमः शुष्क्याय च हरिद्याय च नमो लोप्याय च लभ्याय च नमः ऊर्व्याय च शून्याय च नमः पन्याय च वन्नसज्जाय च नमो वकुरमाणाय चाभिघ्नते च नम आख्यतते च प्रक्षिदते च नमो वह्किरिकेभ्यो देवानागं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजन्भत्केभ्यो नम आनिर्हतेभ्यो नम आमीभत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् वरुषाणामेषाम् वशूनाम् माभेर्मा रोमो येषाम् किञ्च नाम मद याते रुद्रशिवातनोः शिवाभिश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नामृजीवसे इमागम् रुद्राय तमसे कभर्जुने क्षयद्वीराय प्रभामहे मद्यम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातरम् मृणानारुद्रोतनामयस्कृधि क्षयद्वीराय नमसा विधेमते यच्छञ्जयाश्च मनुरायजेऽभिना तदस्यामतव रुद्रप्रणीतौ मानो महान्तमुदमानो अर्भकम् मानमुक्षन्दमुदमानमुक्षितम् मानोदेः पितरम् वोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानसोकेतन ये मान आयुषमानो गोषमानो अस्येषु वीरिषः वीरान्मानो रुद्रभामिनोऽवधेर्हविष्मन्तो नमसा विधेमते आराप्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्रमस्मेते अस्तु रक्षाजरोऽधिजदेव ब्रूह्यथा च नः शन्मयच्छद्विवर्हाः श्रुतम् कर्तसदम् युवानम् मृगन्न भीममुपहर्तुमुग्रम् मृडाय हृत्रे रुद्रस्तवानो अन्यन्ते अस्मन्निपपन्तु सेनाः परिणो रुद्रस्य हेतुर्वृणक्त्वपरिद्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवद्भ्यस्वनुश्वमेढ्वस्तोकायतनयाय मृडय मीढुष्टमशिवतमशिव नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसानाजरपि नाकम् बिभ्रदागैः विकिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निपपन्तु ताः सहस्राणि सहस्रधा बाहुवास्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृधि सहस्राणि सहस्रजो ये रुद्राधिभूम्याम् तेषागम् सहस्रजो जने मधन्वानि तन्मसि अस्मिन्महत्यर्नवेऽन्तरिक्षे भव अधि नीलग्रीवास्य दिगण्ठाः सर्वा अधः क्षमाचराः नीलग्रीवास्य दिगण्ठादिवगम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतया विशिधासः कभर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति सुगावन्तानि शङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुम् सहस्रयो जनेऽवधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्येषामन्नम् वारो वर्षमिषभस्केभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोऽर्धास्तेभ्यो नमस्ते नो मृळयम् ततेयम् विश्वायश्च नो द्वेषिषम् भोजम् भे दधामि त्रयम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् पूर्वारुगमिव बन्धनान् भृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशामृत्योमर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः एनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॐ शान्ति शान्ति शान्तिः। विष्णो सजोषसेवावर्धन्तु वाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे बाणश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मोजश्च मे सहश्च मायुश्च मे जरा च आत्मा च मे धनोश्च मे जन्म च मे जमेऽङ्गानि च मे स्वानि च मे भरोगंश च मे शरीराणि च मे ज्येष्ठम् च महाधिपत्यम् च मे मन्यश्च मे भावश्च मे मश्च मेऽम्भश्च मे देवा च मे महिमा च मे वरिमा च मे प्रथिमा च मे भर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुहृदम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुमधम् च मद्धम् च मद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे सृञ्ज मे मयश्च मे प्रियञ्ज मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृदम् च मे यक्ष्मम् च मे रामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदृढम् च मे ऊर्च मे सौहृदा च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च माउद्भिर्जम् च मे रजश्च मे राजश्च मे पुष्टम् च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भोजश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षयश्च मे कूजवाश्च मेऽन्नम् च मे क्षुश्च मे व्रीहयश्च मे जवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मधुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अस्माच मे मृत्तिकाय मे घरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शीलम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च मोषधयश्च मे कृष्णभच्यम् च मे कृष्णभच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वृत्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कम्म च मे शक्तिश्च मे अर्धश्च मयेमश्च मयितिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विश्वश्च म इन्द्रश्च मे शिरौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे जौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मेऽन्तर्यामश्च म इन्द्रवायवश्च मे मैत्रावरुणश्च माश्विनश्च मे प्रस्थानश्च मे शुक्रश्च मे मन्धी च माग्रजणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुद्ग्रहाश्च मे जिग्राह्याश्च म इन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीपदश्च मे हारीयोजनश्च मे युद्धश्च मे बर्हिश्च मे वेदिश्च मे धिष्ण्ययाश्च मे सृजश्च मे च मगाश्च मे ग्रावाणश्च मे स्वरवश्च मौपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे भूतभृत्य म आधवनीयश्च माग्नेर्धम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे वजनाश्च मे वृधश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे जौश्च मे शक्वरीरङ्गुलयोगिषश्च मे यज्ञेन कल्पन्तामृत्य मे साम च मे स्तोमश्च मे ययुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्रयोर्वृष्या बृहद्रथन्धरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे मत्साश्च मे त्रियविश्च मे त्रियवी च मे दृत्यवाच मे दृत्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच मे तुर्यौही च मे पष्ठवाच मे पष्ठौही च मुक्षा च मे वशा च मर्षभश्च मे वेहश्च मे लड्वाञ्च मे धेनुश्च महायुर्यज्ञेन कल्पताम् प्राणायज्ञेन कल्पताम् अपानायज्ञेन कल्पताम् ज्ञानायज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् श्रोत्रम् यज्ञेन कल्पताम् मनोयज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एकाजमे तिस्रस्य मे पञ्चजमे सप्तजमे नवजम एकादशजमे त्रयोदशजमे पञ्चदशजमे सप्तदशजमे नवदशजम एकविंशतिश्च मे त्रयोविंशतिश्च मे पञ्चविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे चतस्रश्च मेऽष्टौचमे द्वादशच मे षोडशचमे विंशतिश्च मे चतुर्विंशतिश्च मेऽष्टाविंशतिश्च मे द्वात्रिंशच्च मे षट्त्रिंशच्च मे चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मेऽष्टाचत्वारिंशच्च मे वाजश्च प्रथमश्चापितश्च क्रतुश्च सर्वश्च मूर्धाजम्यश्चाञ्चाजनश्चाञ्चश्च भौवनश्च भुवनश्चाधिपतिश्च इडादेव होर्मनर्यज्ञनेर्बृहस्पतिरुक्थामदानिषद्विश्वे देवास्वोऽग्रवाजः पृथिवीमायुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमनिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासकम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवावन्तु शोभायै पितरो नमदनो ॐ शान्तिश्शान्तिश्शान्तिः। ॐ तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्पुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नास्त्वद्विपदे सञ्जतुष्पदे। ॐ शान्तिश्शान्तिश्शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद सभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येशानः इदम् वेदातिरोहति एतावानस्य महिमा। अतोज्यायागुश्च पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वबुधैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् व्यक्रामद शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातोऽत्यरिच्यत पश्चाद्भूमिमधोपुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्म शरद्धविः सप्तास्यासन्परिधयः त्रिसप्तसमिधः कृताः देवायज्ञम् तन्वानाः अबद्धम् पुरुषम् पशुम् तञ्जज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् मृषराज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः हर्जस्वामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्माद् यजस्तस्मादजायत तस्मादश्वा अजायन्त ये तेजो भयादतः गावोह जज्ञिरे तस्माद् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः तथा व्यकल्पयन् मुखम् किमस्य कौ बाहो कामोरूपादा उच्यते ब्राह्मणस्य मुखमासीत् बाहूराजन्यः कृतः ऊरो तदस्य यद्वै स्यः। पद्भ्यागम् श्रोत्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोर्जौः समवर्तत पद्भ्याम् भो निर्दिश श्रोत्रात् तथा लोकानम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदनुजदासे धाता पुरस्ताद्यमुदा जहार शक्रः प्रभिद्वान् प्रतिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अर्भ्यः सम्भूतः पृथिव्यैरसाच्या विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्ताद् तमेवम् विद्वानमृत इह भवति नान्यः पन्था युध्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमाना बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति मेधसः यो देवेभ्य आगपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमारुजाय ब्राह्मये ऋजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणा विद्यात् तस्य देवा असंवसे श्रीश्चले लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्छञ्जोरावृणीमहे जातुम् यज्ञाय जातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्ना अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः। ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारामार्द्राञ्जुलन्तीम् धृताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवह्नाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाञ्जसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रवद्ये लक्ष्मीर्मे दृश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽधबिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमुद्धिम् ददातु मे क्षुत्तिपादामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाणि निर्नदमे गृहात् गन्धद्वारान् दुराधर्षान् नित्यपुष्टाङ्करीषिणीम्
ईश्वरीकम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसत्काममाकोजम् वाचः सत्यमधीमहे पशूनाकम् रूपमन्नस्य महिश्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपस्रजन्तस्निग्धानि चिक्लीतवसमे गृहे निजदेवीम् मातरम् श्रियम् वासय मे कुले आद्राम् पुष्करिणीम् पुष्प्यम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह आर्द्राम् यः करिणीम् जष्टिम् पिङ्गळाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतङ्गावो दास्योऽश्वानविन्देयम् पुरुषानहम् यश्रियःप्रयदा भूत्वा जुहुयालाद्यमन्महम् श्रियः पञ्चदशर्जम् च श्रीकामस्त तदञ्जपेद आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः ऋषयस्ते त्रयः पुत्रा स्वयम् श्रीदेव देवता पद्मानने पद्मभूरो पद्माक्षी पद्मसम्भवे त्वम् माम् भयस्य पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि धनधायि महाधने धनम् मे जुषदाम् देवीम् सर्वकामार्थसिद्धये पुत्रपौत्रधनम् धान्यम् हस्त्यश्वाजाभिगोरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् चन्द्राभाल्लक्ष्मीमीशानाम् सूर्याभाम् श्रियमेश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्भरुणम् धनमश्नुते वैरदेय सोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न जमात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षम् सुरेति भावरिदिवो अभ्रस्य विद्युतः रोहम् तु सर्वबीजान्यपब्रह्मद्विषो यः पद्मप्रिये पद्मनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनकूले त्वत्पादपद्मम् महिषम् निधत्स्व यासा पद्मासनस्थाविमलकटितटे पद्मपत्रायताक्षे गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्माभिलाहेमकुम्भैः नित्यम् सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीम् क्षीरसमुद्रराजतलयाम् श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववलिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मेर्मोक्षलक्ष्मेर्जयलक्ष्मेः सरस्वते श्रीलक्ष्मेर्वरलक्ष्मेश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासरसाम् बालार्ककोटिप्रतिभान् त्रिनेत्राम् भजेहमम्बाम् जगदीश्वरीन्ताम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात्। ॐ धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशस्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वम् नारायणकम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ध्याताध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्दम् विश्वशम्भवम् पद्मकोशप्रतीकाशकम् हृदयम् चाप्यधोमुखम् अधो निष्ट्याभिदस्यान्तेनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततकम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुशिरकम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभग्विभजम् तिष्ठन्नाहारमजरः कविः तिर्ययोर्ध्वमधशायैरश्मयस्वस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्थगः तस्य मध्ये वह्निशिखा अणीयोऽर्ध्वाव्यवस्थितः नीलतो यदमध्यस्ताद्विज्युल्लेखे बभास्वरा नीवारसोकवद्धन्वीपीताभास्वच्छणोपमा तस्यासिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मसदिवः स हरिश्चेन्द्रस्वाक्षरः परमस्वराड् योपाम्बुष्पम् वेद पुष्पवान् प्रजावान् पशुवान् भवति चन्द्रमा वा अपाम्बुष्पम् पुष्पवान् प्रजावान् पशुवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति योऽग्नेरायतनम् वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति योमश्यतमथ आयतनम् वेद आयतनवान् भवति आपो वा अमश्यतपद आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमथ आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमथ आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद योऽप्सुनाभम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठति किम् तद्विष्णोर्बलमाहुः का दीप्तिः किम् परायणम् एको यद्धारयद्देवः वेजति रोदसी उभे वाताद्विष्णोर्बलमाहुः अक्षराद्दीप्तिरुच्यते कृपणाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् राजाधिराजाय प्रसह्यसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातो कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायोः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्नस्य रविभूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् वषट्कालस्त्वमिन्द्रस्त्वगम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्म त्वम् प्रजापतिः त्वम् तदाप आभोज्योतिरसोऽवृतम् ब्रह्म भूर्भुवः सुवरोम् अथैतम् विष्णवे जलम् निर्वपदे यज्ञो वै विष्णुः यज्ञ एवान्ततः प्रतिष्ठति स्वोत्रजोगे विष्णवे स्वाहा यज्ञाय स्वाहा प्रतिष्ठायै स्वाहेति नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशान सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभाम् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीणाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात्। ॐ निधनपतये नमः निधनपदान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गगोस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवेनाति भवे भवः स्वमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो ममोन्मनाय नमः अघोरेभ्यो धघोरेभ्यो घोरघोरधरेभ्यः सर्वेभ्यः सर्वशिर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्त्यः प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्द्यः प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदग्गुष्ट्राय धीमहि तन्नो नारदसिंहः प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गः प्रचोदयात् ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताः सुखिनो भवन्तु काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी देशोऽयम् क्षोभरहितः ब्राह्मणाः सन्तु निर्भयाः अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु जीवन्तु शरदाम् शतम् ॐ शान्तिः 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 सर्वे जनाः सुखिनो भवन्तु हरिः।